कृतज्ञताज्ञापनम्। समस्तजनकल्याणे निरतं करुणामयं नमामि चिन्मयं देवं सद्गुरुं ब्रह्मवेत्वरं संस्कृतिर्वीक्षहानिं च भारतस्य च दुःस्थितिं द्रवितं हृदयं यस्य वन्देहं तं महामुनिं। निष्क्रिया करुणा क्वापि सफला न भविष्यति इति मत्वा सर्वदैव कर्मणि वर्तते यतिः। स्वयं कुर्वन् कारयंश्च कर्माणि विविधानि यः असक्तः सर्वकार्येषु वर्तते सर्वदा च सः। ज्ञानयज्ञप्रचारञ्च ब्रह्मचारिप्रशिक्षणं श्रुतिस्मृतिपुराणादि व्याख्याग्रन्थप्रकाशनं बालकेषु च संस्कारः विचारो युवकेषु च धर्मनिष्ठा देशभक्तिः लोकसेवा तथैव च। यथा बुद्धिं प्राप्नुवन्ति तथा यत्नं करोति सः सर्वदा सर्वभावेन सद्गुरुर्नो यतीश्वरः। ये गुणाः सर्वशास्त्रेषु वर्ण्यन्ते ब्रह्मज्ञानिनां तैरयं सर्वदा पूर्णः राजते सर्वयोगिनां। निर्गुणे निश्चला निष्ठा सगुणे सरसारतिः संगमो मधुरश्चायं देशिकेनो महात्मनि। अनेकजन्मार्जितपुण्यप्राप्तः मया गुरुर्यो जगति प्रसिद्धः यस्य प्रसादेन मनः प्रशान्तं बभूवमेतं शिरसा नमामि। कृतज्ञताया च हृदि स्थिता मे वक्तुं न शक्या खलु यत्नतोऽपि। गुरो प्रसीद कृपया विधेहि त्वत्पादभक्तिं परमानुरक्तिं त्वत्पादभक्तिं परमानुरक्तिम्।